कविं कवीनामुपवश्रवस्तवम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पत आनशृण्वन् नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धेनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यवहुतो त इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृणया या ते रुद्रशिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः यामि शृङ्गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रताम् कुरु माहि गुंसेः पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहेगश्च सर्वान् जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेरयीमहे असव्यो वसत्पति नीलग्रीवो विलोहितः उतैरम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वा नोऽहन्तेभ्यो करणमः प्रमञ्चथन्वनस्त्वमुभयोरात्रियोर्चा याश्च ते हस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशते सुधे निशीर्य शल्याणाम् मुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गतिः या ते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाततय धृष्टवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। నమో హిరణ్యవాహవే సేనాన్యేతి దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః సస్మిన్ జరాయ త్వషీమతే పథీనాం పతయే నమో నమో బభ్లుషాయ వివ్యాధినేనానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తతా వినేక్షేత్రానాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్తపతయే వృక్షానాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షానాం పతయే నమో నమో భువంతయే వారివస్కృతాయ ఔషధే నాం పతయే నమో నమ ఉచ్చైర్దోషాయ క్రంతయతే పత్తీనాం పతయే నమో నమ కృత్సవీతాయ ధావతే సత్వనాం పతయే నమః నమః సహమానాయ నివ్యాధినా వ్యాధినీనాం పతయే నమో నమ ककुबाय निषंगिणे सेनानां पतये नमो नमो निषंगिण यशोधिमते तस्करानां पतये नमो नमो वञ्चते परिवञ्चते सायूनां పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమశ్రికావ్యభ్యో జిహాగుం సద్భ్యో ముష్టతాం పతయే నమో నమో శ్రీమద్భ్యో నక్తం చరభ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యో ధన్వారిభ్యశ్చ వో నమో నమ ఆతన్వారేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయచ్ఛద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్యశ్చయానేభ్యశ్చ వో నమో నమస్వపద్భ్యో జాగ్రభ్యశ్చ వో నమో నమస్తిష్టద్భ్యో దావభ్యశ్చ వో నమో నమః సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యోశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగుం హతేభ్యశ్చ వో నమో నమో వృత్సేభ్యో వృత్సపతిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో ప్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రథేభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమస్సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమః కులారేభ్యః కర్మారేభ్యశ్చ వో నమో నమః కుంజిష్ఠేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుగ్రద్భ్యో ధన్వగ్రద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమశ్వభ్యశ్వపతిభ్యశ్చ వో నమః नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीडुष्ठवाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नम आशवे चाचिराय च नमः शीघ्रियाय च शेभ्याय च नम ऊर्म्याय चावस्वन्याय च नम स्रोतस्याय च देव्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धेयाय च नमः सोभ्याय च प्रतिसर्ग्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्रोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेनाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः शूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेर्द्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः ताट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमानाय च विद्धते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्केभ्यः द्रावे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेमा रोगो येषाम् किञ्चनाममत् याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुं रुद्राय तवसे कपर्दिने क्षयत्वीराय प्रभरामहे मतिम् यकारश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् गामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्त्रधिक्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभावितो वधेर्हविष्मन्तो नमसा विधेमते आरात्ते गोघ्र उत पोलुषग्ने शयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधिचरेव रोह्यदा च नश्यन्म यच्च द्विबर्हा सुहिश्रुतम् गर्त सदयुवारम् मृगन्न भीममुपहत्वमुग्रम् नृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतुर्वृणक्तु परित्वेषस्य दुर्मतिरकायोः अवस्थिरामघवद्भ्यस्तनुष्वमीढ्वस्तोकायतनयाय मृडया मीढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निधाय कृत्यम् वसान आचर पिनाकम् बिभ्रदागहि विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् एतयोन्यवस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुकाकृधे सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन्महत्यर्नवेन्तरिक्षे भवति नीलग्रीवाशितिकण्ठा शर्वादः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रुताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासः कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् ये पतां पतिरक्षय ऐलभृदायभ्युदः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंशश्च दिशो रुद्रावितत्तिरे तेषागुंसहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् विष्णो यश्च नो द्वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनाविवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो माविशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि अश्विशुसुदन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्मा महेशौ मनसाय रुद्रन्नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोयगुम् शिवाभिवर्षनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेवावद्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च वाधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्तानि च मे परोगुंसि च मे शरीराणि च मे जैष्ठ्यम् च माधिपत्यम् च मे मन्योश्च मे भावश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सोक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपतम् च मरुद्धम् च मरुद्भिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शञ्च मे मयश्च मे प्रियञ्च मे नो कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतश्च मे विश्वं च मे महश्च मे संवेच्च मे यात्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुतिरं च मे ओच्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपेतिश्च मे कृशश्च मे वृष्टिश्च मे चैत्रं च मौद्भिद्यं च मे रयश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे पूयवाश्च मेऽन्नं च मे च्युच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्ना च मे वृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च आपश्च मे विरुधश्च म ओषधयश्च मे कृष्णपच्यं च मे कृष्णपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पोषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे अश्विश्च मे दाभ्यश्च मेधिपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च ಮೇವೈಶ್ವಾನರಶ್ಚ ಮರುತು ಗ್ರಹಾಶ್ಚ ಮೇತಿ ಗ್ರಾಹ್ಯಾಶ್ಚ ಮೈಂದ್ರಾಗ್ನಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಮರುತ್ಪತೇಯಾಶ್ಚ ಮೇ ಮಾಹೇಂದ್ರಶ್ಚ ಮಾದಿತ್ಯಶ್ಚ ಮೇ ಸಾವಿತ್ರಶ್ಚ ಮೇ ಸಾರಸ್ವತಶ್ಚ ಮೇ ಪೌಷ್ಟ್ಯಶ್ಚ ಮೇ ಪಾತ್ನೇವತಶ್ಚ ಮೇ ಆರ್ಯೋಜನಶ್ಚ ಮೇ ಇದ್ಭಶ್ಚ ಮೇ ಬರ್ಹಿಶ್ಚ ಮೇ ವೇದಿಶ್ಚ ಮೇ ಧಿಷ್ಣೆಯಾಶ್ಚ ಮೇ ಸೃಜಶ್ಚ ಮೇ ತಮಸಾಶ್ಚ ಮೇ ಗ್ರಾಮಾಣಶ್ಚ ಮೇ ಸ್ವರವಶ್ಚ ಮ ಉಪರವಾಶ್ಚ ಮೇ ಧಿಷವಣೇ ಚ ಮೇ ದ್ರೋಣಕಲಶಶ್ಚ ಮೇ ವಾಯವ್ಯಾದಿ ಚ ಮೇ ಪೋತವೃಕ್ಷ ಮ ಆಧವನೀಯಶ್ಚ ಮ ಆಗ್ನೇತ್ರಂ ಚ ಮೇ ವಿರ್ದಾನಂ ಚ ಮೇ ಗೃಹಾಶ್ಚ ಮೇ ಸದಶ್ಚ ಮೇ ಪುರೋಡಾಶಾಶ್ಚ ಮೇ ಪಚತಾಶ್ಚ ಮೇ ವಬೃದಶ್ಚ ಮೇ ಸ್ವಗಾಕಾರಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮೇ ಧರ್ಮಶ್ಚ ಮೇರ್ಕಶ್ಚ ಮೇ ಸೂರ್ಯಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಶ್ವಮೇಧಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮೇದಿತಿಶ್ಚ ಮೇದಿತಿಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮೇ ಶಕ್ಪರಿರಂಗುಳಯೋ ದಿಶಶ್ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಮೃಕ್ಷ ಮೇ ಸಾಮ ಚ ಮೇ ಸ್ತೋಮಶ್ಚ ಮೇ ಯಜುಶ್ಚ ಮೇ ದೀಕ್ಷಾ ಚ ಮೇ ತಪಶ್ಚ ಮರುತುಶ್ಚ ಮೇ ವ್ರತಂ ಚ ಮೇ ಹೋರಾತ್ರಯೋರ್ವೃಷ್ಟ್ಯಾ ಬೃಹತ್ತದಂತರೇ ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪೇತಾಂ ಗರ್ಭಾಶ್ಚ ಮೇ ವತ್ಸಾಶ್ಚ ಮೇ ತ್ರಯವಿಶ್ಚ ಮೇ ತ್ರಯವೇ ಚ ಮೇ ದಿತ್ಯವಾಚ್ಚ ಮೇ ದಿತ್ಯೌಹೇ ಚ ಮೇ ಪಂಚಾವಿಶ್ಚ ಮೇ ಪಂಚಾವೇ ಚ ಮೇ ತ್ರಿವತ್ಸಶ್ಚ ಮೇ ತ್ರಿವತ್ಸಾ ಚ ಮೇ ತುರ್ಯವಾಚ್ಚ ಮೇ ತುರ್ಯೌಹೇ ಚ ಮೇ ಪಷ್ಟವಾಚ್ಚ ಮೇ ಪಷ್ಟೌಹೇ ಚ ಮುಕ್ಷಾ ಚ ಮೇ ವಶಾ ಚ ಮೃಷಭಶ್ಚ ಮೇ ವೇಹಶ್ಚ ಮೇ ನಡ್ವಾಂಚ ಮೇ ಧೇನುಶ್ಚ ಮ ಆಯುರ್ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಪ್ರಾಣೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಪಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವ್ಯಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಚಕ್ಷುರ್ ಯಜ್ಞೇನ ಕಲ್ಪತಾ ಶ್ರೋತ್ರೈ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಮನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವಾಕ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಆತ್ಮಾ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಯಜ್ಞೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಏಕಾ ಚ ಮೇ ತಿಸ್ರಶ್ಚ ಮೇ ಪಂಚ ಚ ಮೇ ಸಪ್ತ ಚ ಮೇ ನವ ಚ ಮ ಏಕಾದಶ ಚ ಮೇ ತ್ರಯೋದಶ ಚ ಮೇ ಪಂಚದಶ ಚ ಮೇ ಸಪ್ತದಶ ಚ ಮೇ ನವದಶ ಚ ಮ ಏಕವಿಗುಂಸದಿಶ್ಚ ಮೇ ತ್ರಯೋ ವಿಗುಂಸದಿಶ್ಚ ಮೇ ಪಂಚ ವಿಗುಂಸದಿಶ್ಚ ಮೇ ಸಪ್ತ ವಿಗುಂಸದಿಶ್ಚ ಮೇ ನವ ವಿಗುಂಸದಿಶ್ಚ ಮ ಏಕ ತ್ರಿಗುಂಶ್ಚ ಮೇ ತ್ರಯಸ್ತ್ರಿಗುಂಶ್ಚ ಮೇ ಚತಸ್ರಶ್ಚ ಮೇಷ್ಟೌ ಚ ಮೇ ದ್ವಾದಶ ಚ ಮೇ ಷೋಡಶ ಚ ಮೇ ವಿಗುಂಸದಿಶ್ಚ ಮೇ ಚತುರ್ವಿಗುಂಸದಿಶ್ಚ ಮೇಷಾವಿಗುಂಸದಿಶ್ಚ ಮೇ ದ್ವಾತ್ರಿಗುಂಶ್ಚ ಮೇ ಷಟ್ರಿಗುಂಶ್ಚ ಮೇ ಚತ್ವಾರಿಗುಂಶ್ಚ ಮೇ ಚತುಶ್ಚತ್ವಾರಿಗುಂಶ್ಚ ಮೇಷ್ಟಾ ಚತ್ವಾರಿಗುಂಸಚ್ಚ ಮೇ ವಾಯಶ್ಚ ಪ್ರಸವಶ್ಚಾಭಿಜಶ್ಚ ಕ್ರತುಶ್ಚ ಸುವಶ್ಚ ಮೂರ್ಧಾ ಚ ವ್ಯಸ್ನೇಯಶ್ಚಾಂತ್ಯಾಯನಶ್ಚಾಂತ್ಯಶ್ಚ ಭುವನಶ್ಚ ಭುವನಶ್ಚಾಧಿಪತಿಶ್ಚ ಇಡಾ देवहोर्मनुर्यज्ञने बृहस्पतिरुक्ता मदा निषगुं त्रिषद्विश्वे देवासोऽष्टवाच पृथिवीमातर्मामाहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यातगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शन्नोऽस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपाद् स भूमिम् विश्वतो वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषानः यदन्येऽतिरोहति एतावानस्य महिमा अतोज्यायादुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वबुधैर्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वम् व्यक्त्यामत् साशनानशने अभि तस्माद्विराडजायता विराजो अधिपुरुषः स जातो अत्यरिच्यता पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्म शरद्धवे सप्तास्यासनुपरिधयः त्रिसप्त समिदकृताः देवा यद्यज्ञम् तन्मानाः अबध्नम् पुरुषम् पशुम् तल्यज्ञम् बर्हिषि प्रोक्षन्न पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वभूतः संभृतम् पृषदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावो अजज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यगदुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहो राजन्यकृतः पूरुतदस्य यद्वैश्यः पद्भ्यागुं शूद्रो अजायत चन्द्रमा वनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शेष्णोद्यो समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य देयः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदाजहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवते नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते अनाकम् महिमानः सचन्ते यत्र पूर्वे साद्या सन्ति देवाः अद्यः सम्भूतपृथिव्यैरसाच्च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते अनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मणे ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो हृद्यात् तस्य देवा असन्वशे ह्रेष्यते लक्ष्मेः सपत्यो अहो रात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ यातम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्यो रावृणेमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नोऽस्तु द्विपदे शम् चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेनागुम् राजा अप्येषा दुस्थपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्या विशोयता తత్ సత్యం యదముయ్యమస్య జంభయో ఆదధామి తథాహి తత్ ఖన్ఫన్నసి ఓం శాంతి 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 ఓం భద్రం కర్ణే విష్ణుయామదేవాః భద్రం పశ్యే మార్చభిర్యచక్రాః స్థిరైరంగైః సుష్టువాగుంసస్తనోభిః వ్యశేమ దేవహితం యదాయుః స్వస్తి న ఇంద్రో వృద్ధశ్రవాః స్వస్తి న పూషా విశ్వవేదాః స్వస్తి నస్తార్క్షో అరిష్టనేమిః స్వస్తి నో బృహస్పతిర్దధాతు ఓం శాంతి శాంతి శాంతిః ఓం నమస్తే గణపతయే త్వమేవ ప్రత్యక్షం తత్వమసి త్వమేవ కేవలం కర్తాసి త్వమేవ కేవలం ధర్తాసి త్వమేవ కేవలం హర్తాసి త్వమేవ సర్వం ఖల్విదం బ్రహ్మాసి త్వం సాక్షాదాత్మాసి నిత్యం హృతం వచ్మే సత్యం వచ్మే అవత్వం మాం అవవక్తారం అవశ్రోతారం అవదాతారం అవధాతారం అవానోచారమవశిష్యం అవపశ్చాత్తాత్ అవపురస్తాత్ అవోత్తరాతార్ అవదక్షిణాతాత్ అవచోర్ధ్వాతాత్ అవాధరాతాత్ సర్వతో మాం పాహి పాహి సమంతాత్ త్వం వాంగ్మయస్త్వం చిన్మయః త్వమానందమయస్త్వం బ్రహ్మమయః త్వం సచ్చిదానందాద్వితీయోసి త్వం ప్రత్యక్షం బ్రహ్మాసి త్వం జ్ఞానమయో విజ్ఞానమయోసి సర్వం జగదిదం త్వత్తో జాయతే సర్వం జగదిదం త్వత్తస్తిష్ఠతే సర్వం జగదిదం త్వైలయమేష్యతే సర్వం జగదిదం త్వయి ప్రత్యేతే త్వం భూమిరాపో నరో నిలో నభః తం చత్వారి వాక్పదాని తం గుణత్రయాతీతః తం అవస్థాత్రయాతీతః తం దేహత్రయాతీతః తం కాలత్రయాతీతః తం మూలాధారస్థితోసి నిత్యం తం శక్తిత్రయాత్మకః త్వాం యోగినోధ్యాయంతి నిత్యం త్వం బ్రహ్మా త్వం విష్ణుస్త్వం రుద్రస్త్వమింద్రస్త్వమగ్నిస్త్వం వాయుస్త్వం సూర్యస్త్వం చంద్రమాస్త్వం బ్రహ్మ భూర్భువస్సువరోం గణాదిం పూర్వముచ్చార్యావర్ణాదీం సదనంతరం అనుస్వార పరతర అర్ధేందులసితం తారేణ రుద్ధం ఏతత్తవ మనుస్వరూపం గకార పూర్వరూపం అకారో మధ్యమ రూపం అనుస్వారస్యాంత్య రూపం బిందులుత్తర రూపం नागसन्धानम् सगुंहिता सन्देः सैषा गणेश विद्या गणक ऋषि निचुरद्गायत्रे छन्दः गणपतिर्देवता ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्कुशधारिणम् रथम् च वरदम् हस्तैर्बिभ्राणम् मोषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैः सुपूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सृष्ट्यादौ प्रकृते पुरुषात् परम् एवम् ध्यायते यो नित्यम् स योगी योगिनाम् वरः नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदराय एकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः एतदथर्वशीर्षम् यो धीते स ब्रह्मभूयाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायमधिध्यानो दिवसकृतम् पापम् नाशयते प्रातरधिध्यानो रात्रिकृतम् पापम् नाशयते सायम् प्रातः प्रयुञ्ज्ञानो पापो पापो भवति सर्वत्राधियानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दते इदमथर्वशीर्षमशिष्याय न देयम् यो यदि मोहाद्दास्यति स पापीयान् भवति सहस्रावर्तनाद्यम् यम् काममधीते त्वम् तमनेन साधयेत् अनेन गणपतिमभिषञ्चति स वाग्ने भवति चतुर्ध्यावनश्चपति स विद्यावान् भवति इत्यथर्वणवाक्यम् ब्रह्माद्यावरणम् विद्यान्न विभेति कदाचनेति यो दूर्वाङ्कुरैर्यजति स वै श्रवणोपमो भवति यो लाजैर्यजति स यशोवान् भवति समेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साज्यसमिद्भिर्यजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणान् सम्यग्राहयित्वा सूर्यवर्चस्वे भवति सूर्यग्रहे महानद्या प्रतिमा सन्निधौ वाचत्वा सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवम् वेदा इत्युपनिषत् भद्रम् कर्णे विशृणुयाम देवा भद्रम् पश्येमार्षभिर्यजत्रा स्थिरैरङ्गये सुष्ठुवागुम् सस्तनोभिः यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ అగ్నిర్నేవాశ్రితః వాగ్హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి వాయుర్మే ప్రాణేశ్రితః ప్రాణో హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి సూర్యో మే చక్షుషిశ్రితః చక్షుర్హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి చంద్రమా మే మనసిశ్రితః మనోహృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి దిశో మే శ్రోత్రే శ్రుతః శ్రోత్రగుం హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి ఆపో మే రేతశిశ్రుతః రేతో హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి పృథివీ మే శరీరే శ్రుతః శరీరగుం హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి ఓషధి వనస్పతయో మే లోమసుశ్రుతాః లోమాని హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి ఇంద్రో మే బలే శ్రుతః బలగుం హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి పర్జన్యో మే మూర్ధృశ్రుతః మూర్ధాహృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి ఈశానో మే మన్యో శ్రుతః మన్యుర్హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి ఆత్మామ ఆత్మని శ్రుతః ఆత్మా హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి పునర్మ ఆత్మా పునరాయురాగాత్ పునః ప్రాణ పునరాకూతమాగాత్ వైశ్వానరో రశ్మిభిర్వామృగానః అంతస్తిష్టత్వమృతస్య గోపాః ఓం శాంతి శాంతి శాంతిః ఈశానసర్వవిద్యానామీశ్వరః సర్వభూతానాం బ్రహ్మాధిపతిర్బ్రహ్మణోధిపతిర్బ్రహ్మా శివో మే అస్తు సదాశివో తద్విష్ణోర్పరమం పదగుం సదా పశ్యంతి సూరయః దివేవ చక్షురాతతం గ్రద్ది ప్రాసో విపన్యవో జాగ్రవాగుంసః సమిందతే విష్ణోర్యత్ పరమం పదం నారాయణాయ విద్మహే వాసుదేవాయ ధీమహి తన్నో విష్ణు ప్రచోదయాత్ తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహి తన్నో రుద్ర ప్రచోదయాత్ ఓం సాయేశ్వరాయ విద్మహే సత్యదేవాయ ధీమహి తన్నః సర్వ ప్రచోదయాత్ హంస హంసాయ విద్మహే పరమహంసాయ ధీమహి తన్నో హంస ప్రచోదయాత్ న కర్మణాన ప్రజయా ధనేన త్యాగేనైకే అమృతత్వమానశుః परेणनाकम् नेतम् गुहाया विभ्राजदेतज्ञतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्था सन्न्यासयोगात्यधयः शुद्धसत्त्वा ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे गह्रम् विपापम् परमेष्वभूतम् यत्पुण्डरीकम् पुरमद्य सद्गस्तम् तत्रापि दग्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरप्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलेनस्य यः परः स महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् ज्ञानेन मार्गेण महेमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति।